सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यस्य सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्याविहीनः पशुः। अस्माकं गीतासोपानवर्गे अव्ययानां चिन्तनं समाप्यमानमस्ति। षट्चत्वारिंशत्युत्तर एकशतं पुटं पश्यन्तु, पेज् नम्बर् 146 पश्यन्तु। यत् प्रसङ्गे पठन्तः आस्म तस्मिन् पुटे तृतीयः अभ्यासः वर्तते। आदौ पुटस्य आदिमभागे तृतीयः अभ्यासः अस्ति, तस्मात् आरभ्य पठेम। अस्मिन् पुटे श्रीकृष्णस्य उपदेशवाक्यानि दत्तानि, तानि वाक्यानि यत् इति अव्ययम् उपयुज्य पुनः लेखनीयानि। अधुना तं अभ्यासं प्रति गच्छेम। तत्र प्रथमं वाक्यमस्ति मन्मनाः भव, मन्मनाः भव इति श्रीकृष्णः अवदत्। मन्मनाः भव इति श्रीकृष्णः अवदत्, तस्मिन् वाक्ये इति अव्ययम् उपयुज्य उक्तवती। तद् वाक्यं साधु एव, तदेव वाक्यं परिवर्त्य यत् इति अव्ययम् उपयुज्य पुनः लिखामश्चेत् श्रीकृष्णः अवदत् यत् मन्मनाः भव इति परिवर्त्य लेखनीयं भवति। तस्मात् आरभ्य पठेम। आदौ सूचनां पठामः। सूर्यकुमारी भगिनी आरम्भं करोतु।
हा भगिनि, अधः कृष्णस्य उपदेशवाक्यानि दत्तानि, तानि यत् इति पदेन पुनः कथयत। अतः कृष्णस्य उपदेशवाक्यानि अधः अधोभागे अव्ययमस्ति। कृष्णस्य अकारान्त पुल्लिङ्ग प्रथम षष्ठी, क्षम्यतां षष्ठी एकवचनं।
भगिनी कृष्णेन इत्यत्र अणत्वमस्ति वा?
कृष्णेन कृष्णा भगिनी
किमर्थं नास्ति?
नकार अस्ति चेत् शकार नकार अस्ति
इत्युक्ते शकारोत्तरवर्ती मूर्धन्य णकारः अस्ति। तत्र बाधकवर्णः कः? कृष्णेन इति तृतीया विभक्ति एकवचनरूपम् अस्ति खलु।
कृष्णेन मूर्धन नकार बाधितवर्णः अस्ति।
उत्तमं, कृष्णेन इत्यत्र उपदेशः श्रुतवती खलु, पुंलिङ्गपदम् उपदेशः। दिश् धातुः तत्र लटीरूपं दिशति अस्ति, उपदिशति इति लटीरूपमस्ति। उपदिशति इति तिङन्तपदम्, उपदेशः इति कृदन्तपदम्। दिश् धातुतः घञ् प्रत्ययस्य योजनेन देशः इति रूपं सिद्ध्यति। तत्र किं सूत्रं कार्यं करोति? गुणकार्यं भवितुं,
गुणकार्यं भवति अर्धधातुक गाय् प्रत्यय अर्धधातुक अस्ति चेत्
अस्ति
लघुपदस्य पुगन्तलघुपदस्य इति सूत्रेण उपदार्थितस्य इक्वर्णः गुणः भवति।
उत्तमं, दिश् इति लघु इगुपदधातुः, अतः पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भूत्वा देश् भवति। अपि च वच् धातोः रूपमेव वाक्यम् इति भवति। तत्र यः उपदेशं करोति सः
उपदेशी,
उपदेशी। इतोपि अन्यत् पदमस्ति, तृजन्तरूपम् अस्ति, तृजन्तरूपं, तृजन्तरूपं वक्तुमिच्छति वा? अत्र दिश् धातुतः तृच् योजनेन दिश् इति धातुः अस्ति, उप उपसर्गः तु अस्ति एव, उपयोगः अत्र रमेश महोदय भवान् ऊहां कर्तुं शक्नोति वा, उपसर्गः अस्ति, दिश् धातुः अस्ति, तृच् इति प्रत्ययं योजयामः.
उपदेष्टा वा उपदेष्टृ इति भवति वा?
उत्तमं, धन्यवादाः. उपदेष्टा भवति इत्युक्ते तत्र प्रथमाविभक्ति एकवचनं पुंलिङ्गे उपदेष्टा भवति. स्त्रीलिङ्गे अस्ति चेत् उपदेष्ट्री, या उपदेशं करोति सा उपदेष्ट्री, कर्ता अस्ति चेत् कर्त्री इति भवति. इत्युक्ते तृजन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. उपदेष्टा इति पुंलिङ्गरूपमस्ति, तत्र प्रातिपदिकमस्ति उपदेष्टृ, तत्र अन्यानि सन्धिकार्याणि भवन्ति, अतः उपदेष्टृ इति रूपं सिद्ध्यति. यः उपदेशं करोति सः उपदेष्टा, तदपि साधु एव. उपदेशी अपि साधु एव, उपदेष्टा अपि साधु एव. उपदेशी इत्यत्र सूर्यकुमारी भगिनी प्रातिपदिकं किमस्ति?
उपदेशी अस्ति.
उपदेशिन्
ह्रस्वकारः अस्ति.
तत्र प्रातिपदिकं प्रातिपदिकम् उपदेशिन् नकारान्तप्रातिपदिकम् अस्ति खलु?
भगिनि
उत्तमम्, उत्तमं.
तत्र उपदेष्टृ कथमस्ति?
तत्र दिश् इति धातुः तालव्यशकारान्तधातुः, अतः विशिष्टसूत्रेण तालव्यशकारस्य स्थाने आदौ मूर्धन्यशकारः आयाति. मूर्धन्यशकारः यदा आयाति तदा मूर्धन्यशकारस्य प्रभावेण तृच् इत्यत्र तकारः अस्ति खलु, सः तकारः मूर्धन्यटकारः भवति, तेन उपदेष्टृ खलु. उत्तमम्. उपदेशवाक्यानि समस्तपदमेव. अहं चिन्तयामि कर्मधारयसमासः इति भावयामि. तत्र दत्तानि इति रूपम् अस्ति, दाधातुः अस्ति. रमेश महोदय भवान् किञ्चित् विवृणोतु.
दाधातुः अस्ति, दत्तानि, दत्तं दत्ते दत्तानि, तर्हि तान्तपदमस्ति. तत्र दा तकारः अपि आगच्छति एकम् आगमरूपेण. तकारः दास्थाने दत् आदेशः भवति, दास्थाने दत् आदेशः भवति.
बहु सम्यक्. दो दद्घोः इति सूत्रमस्ति, दो दद्घोः इति सूत्रेण तत्र दो दद्घोः इत्यत्र सन्धिकार्याणि सन्ति. तत्र पदविच्छेदं कुर्मः चेत् दः दत् दत्थ इति कथनेन तत्र थकारः अस्ति, ताथ इति रूपम् अस्ति, दत् आदेशः भवति. तत्र तवर्गे पञ्चव्यञ्जनानि सन्ति खलु, तथ दध न रूपाणि सन्ति खलु, तत्र थ दत्थ इति आदेशः भवति दास्थाने. तत् कार्यं केन सूत्रेण भवति? दो दद्घोः इति सूत्रेण भवति. घूसंज्ञकधा धातोः परं तकारादिकित् प्रत्ययः, कथाप्रत्ययः तकारादिः, कित् प्रत्ययः खलु, तकारादिकित् प्रत्यये परे दत्थादेशः भवति दास्थाने. दत्थयोगः क्ता इति स्थितिः अस्ति. महोदय भवान् वदतु इदानीं किं भवति?
दत्योगः तत्र जलां जश् जशि, जलां जश् जशि वा?
चर्त्वं चर्त्वं खरीच
खरीच एव वा? खरीच भूत्वा, हा खरीच अपि भवति, हा करीच भवति, करीच
भवति चेत् तत्र थकारस्य स्थाने सामान्यतकारः, अल्पप्राणतकारः आयाति, दत् भवति, दत् योगः तत्र क्ताप्रत्ययस्य अनुबन्धलोपानां अनुबन्धलोपानन्तरं ता अस्ति खलु, वर्णमेलनेन दत्ता इति भवति खलु. उत्तमं, तत्र प्रातिपदिकमस्ति दत्त इति प्रातिपदिकमस्ति. यदा वयं कृदन्तप्रातिपदिकं साधयामः तदा कृदन्तप्रातिपदिकं स्वीकृत्य सुप्रत्ययान् योजयित्वा त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु कृदन्तरूपाणि सर्वाणि साधयितुं शक्नुमः. तत्र प्रातिपदिकं दत्त इति विषयः. भगिनी भवती पठतु अग्रे किमस्ति.
तानि तद्शब्दस्य द्वितीयबहुवचनं तानि.
तकारान्तप्रातिपदिकं तद् शब्दः.
तद् आम् आम् तकारान्तप्रातिपदिकं. तानि यत् अव्ययमस्ति इति अपि अव्ययमस्ति पदेन तृतीय
पदं पदम् इति नपुंसकलिङ्गपदं
पदं पद अकारान्त नपुंसकलिङ्गपदशब्दः तृतीय एकवचनमस्ति. पुनः अव्ययमस्ति कथयथ लोट्लकारमध्यमपुरुष बहुवचनमस्ति.
तत्र पदेन सह इति सामान्यतया वदामः. सः इति उपपदं नास्ति चेदपि साधु इति भाति. यत् इति पदेन सह, पुनः कथयत. कथयत प्रसङ्गे गते वर्गे अहम् उक्तवती चुरादिगणीयधातुः वस्तुतः धातुः अकारान्तधातुः ह्रस्व अकारान्तधातुः. कथा अस्ति किन्तु तत्र अकारलोपः भवति आर्धधातुकप्रत्यये परे. धातुः चुरादिगणे अस्ति इति कारणतः चुरादिगणीयधातुषु सर्वदा स्वार्धे अपि णिच् प्रत्ययः विहितः भवति. णिच् प्रत्ययः आर्धधातुकप्रत्ययः. णिच् इति आर्धधातुकप्रत्यये परे कथा इति धातोः अन्ते स्थितस्य अकारस्य लोपः भवति अतोलोपः इति सूत्रेण. तेन कथ् भवति. पश्चात् णिच् इत्यस्मात् ई आयाति. कथि इति नूतनधातुः. तस्मात् परं तिङ्प्रत्ययान् योजयामः. तेन कथयत इति रूपं सिद्ध्यति. कथयत किं रूपं?
लोट्लकार मध्यमपुरुष बहुवचनं.
तत्र किं सूत्रम् आवश्यकं सिद्धप्रत्ययानां निर्माणार्थं?
तान्तन्तामः.
उत्तमं, तस्थस्थमिपां तान्तन्तामः इति सूत्रमस्ति. तत्र मध्यमपुरुष
लोट्लङ्वत् सूत्रं
वदतु.
लोट्लङ्वत् सूत्रेण नित् प्रत्ययैव तान्तन्तामः.
अत्र इतोपि स्पष्टतया भवती जानाति एव, इतोपि स्पष्टतया रमेश महोदय भवान् वक्तुम् इच्छति वा?
न महोदय, प्रक्रिया अहं न जानामि.
तत्र किं कार्यमस्ति इति प्रश्ने सति तस्थस्थमिपां तान्तन्तामः इति सूत्रं नित्लकाराणां प्रसङ्गे एव कार्यं करोति. नित्लकाराः इति वदामः. नित् इति कथनेन तत्र नित् इत्यत्र ण्यकारः इति संज्ञकः खलु. नित्लकाराणां प्रसङ्गे इदं सूत्रम् आदौ प्रसक्तमस्ति. इत्युक्ते लङ्लकारः नित्लकारः. लङ् लङ् इति कथनेन नित् अस्ति खलु. लङ्लकारः नित्लकारः. लृङ्लकारः नित्लकारः. तत्र तस्थस्थमिपां तान्तन्तामः इति सूत्रं नित्लकाराणां कृते निर्मितमस्ति. किन्तु तत्र एकम् अन्यत् सूत्रम् अतिदेशसूत्रम् आयाति. तत् सूत्रं किमित्युक्ते लोटो लङ्वत् इति सूत्रमस्ति. लोटो लङ्वत् इति सूत्रेण लोट्लकारस्य तिङ्प्रत्ययाः लङ्वत् भवन्ति इति अर्थः, सूत्रार्थः. लोट्लकारसिद्धप्रत्ययाः लङ्वत् भवन्ति इति अतिदेशसूत्रेण उच्यते. अतः लोट्लकारे अपि तस्थस्थमिपां तान्तन्तामः इति सूत्रं कार्यं करोति. न केवलं नित्लकाराणां प्रसङ्गे, लोट् लकाराणां प्रसङ्गे अपि नित् लङ् लृङ् इत्यादिषु तेन सूत्रेण सिद्धप्रत्ययान् निर्मामः. एवमेव लोट् लकारे अपि लोटो लङ्वत् सूत्रेण लोट् लकारप्रत्ययाः लङ्वत् प्रवर्तन्ते इति कारणतः तस्थस्थमिपां तान्तन्तामः सूत्रं लोट् लकारे अपि कार्यं करोति. अतः थ इति मध्यमपुरुष बहुवचन प्रत्ययः अस्ति, मूलप्रत्ययः अस्ति थ प्रत्ययः. था स्थाने ता आदेशः भवति, तेन कथयत इति रूपं भवति. आदौ कथय तावत्पर्यन्तं साधयामः. ता इति सिद्धप्रत्ययः, केवलं सिद्धप्रत्ययं योजयामः. कथय पर्यन्तं कथं भवति इति वयं जानीमः एव. कथि धातुं, कथि इति आतिदेशिकधातुः, नूतनधातुः, णिजन्तधातुः, नूतनधातुं स्वीकृत्य तस्मात् परं अन्यानि कार्याणि कृत्वा कथय तावत्पर्यन्तं साधयामः. पश्चात् ता इति सिद्धप्रत्ययं योजयामः. कथयत इति रूपं तथा निर्मामः. अग्रे भवती एव प्रथमं वाक्यं करोतु.
यथा कृष्णः अवदत् यत् मन्मनाः भव, यत् उपयुज्य वाक्यमस्ति. मन्मनाः भव, मन्मनाः भव इति कृष्णः अवदत्. तदेव भगिनि,
मन्मनाः भव. तत्र उदाहरणत्वेन अत्र लिखितमस्ति कृष्णः अवदत् यत्
मन्मनाः भव.
तत्र मन्मनाः इति रूपम् अस्ति. तद्रूपं कीदृशं रूपं, तत्र वचनं किमस्ति?
मत्मनाः
एकवचनम्. एकवचनं कथं जानाति भवती? तत्र क्रियापदं किं वदति?
मनः, मनसि, मनांसि. सकारान्त नपुंसकलिङ्ग पदमस्ति. तत् अत्र पुल्लिङ्गरूपेण परिवर्तनं भवति इति कारणेन वेदशब्दवत् कार्यं करोति. मन्मनाः, मन्मनसौ, मन्मनसः इति रूपाणि सिद्ध्यन्ति.
उत्तमं. तत्र सकारान्तप्रातिपदिकं तावत् साधु अस्ति, एकवचनरूपम्. अत्र सकारान्तप्रातिपदिकम् एकवचनरूपम् अस्ति, अपि च अत्र भव इति एकवचनरूपमस्ति खलु. भव इति तिङन्तपदं दृष्ट्वा वयम् अवगन्तुं शक्नुमः, मन्मनाः भव, त्वं मन्मनाः भव इति अत्र आशयः अस्ति. अत्र महोदय भवान् वदतु, मन्मनाः इत्व्र बहुव्रीहि समासः अस्ति, अतः विग्रहवाक्यं वक्तव्यम्.
मत् मत् मनः मत् मम मनः यस्य यस्य सः इति मन्मनाः.
न, रमेश महोदय कृपया वदतु.
मयि मनः यस्य सः वा?
मयि मनः यस्य सः, मयि मनः यस्य सः. तत्र मयि इति सप्तम्यन्तमस्ति. मयि मनः यस्य सः, मन्मनाः इति कथनेन मच्चित्तः. मच्चित्तः इति अपि बहुव्रीहिसमासयुक्तं पदमेव. मयि चित्तं यस्य सः, मच्चित्तः, मदाराधकः, आराधकः इति पदमपि अस्ति. मदाराधकः, मन्मनस्कः. सुन्दरमहोदय भवान् जानाति खलु मन्मनस्कः?
मन्मनस्कः, आम् आम्.
मच्चित्तः, मदाराधकः, इमानि पदानि पर्यायवाचकपदानि. मन्मनाः इति एकवचनरूपम् अस्ति. भव, भव इत्यत्र किं कार्यमस्ति सूर्यकुमारी भगिनी?
भव मध्यमपुरुष लोट्लकार एकवचनं भूधातुतः.
भूधातुतः लोट्लकार मध्यमपुरुष एकवचनरूपम् अस्ति भव. तत्र मध्यमपुरुष एकवचनरूपमस्ति. तत्र अतो हे हे इति सूत्रेण हि प्रत्ययस्य लुक् भवति खलु.
आं भगिनि.
किमर्थं भवति?
अदन्तङ्गम् अस्ति चेत् हि होर् सूत्रमस्ति. प्रथमं हि अस्ति, तत् लोपं भवति हतो हे हे.
उत्तमम्. अत्र मध्यमपुरुष लोट्लकारप्रसङ्गे मध्यमपुरुष एकवचन प्रसङ्गे सेर्ह्य पिच्च इति सूत्रमस्ति. सेहे इति स्थाने अपित् प्रत्ययः हि प्रत्ययः आयाति इति अर्थः. तत्र सूत्रमस्ति सेर्ह्य पिच्च इति सूत्रं. सेहे अपित् च हि हि इति आदेशः भवति तेन सूत्रेण, किन्तु तत् कार्यं सर्वदा भवति. किन्तु अतो हे हे इति सूत्रस्य कार्यं तु केवलम् अदन्तङ्गेषु एव भवति. भूधातुः भुवादिगणे अस्ति, भुवादिगणीयप्रथमसदस्यः खलु भूधातुः. अतः भुवादिगणे अदन्तम् अङ्गं सिद्ध्यति. भव इति अङ्गमस्ति भूधातुतः. तिङ् प्रत्ययस्य कृते भव इति अङ्गं भवति. भव इति अङ्गं ह्रस्व अकारान्तम् अङ्गम् अस्ति. अतः भुवादिगणे अदन्तम् अङ्गमस्ति इति कारणतः अतो हे हे इति सूत्रेण हि प्रत्ययस्य लुक् भवति. यद्यपि सूत्रे पदद्वयमेव अस्ति, अतो हे हे, अतः हे हे इति अस्ति, किन्तु तत्र लुक् इति पदं पूर्वसूत्रात् अनुवृत्तं भवति. अतः हि प्रत्ययस्य लुक् भवति. अतः भव इति रूपं सिद्ध्यति. मध्यमपुरुषे एकवचनरूपं लोट्लकारे. अग्रिमं वाक्यं दर्शना भगिनी भवती करोतु.
श्रूयते भगिनि?
श्रूयते
भगिनि. श्रूयते किम्?
श्रूयते
मम ध्वनिः.
श्रूयते.
अहं पापेभ्यः मोक्षयिष्यामि. कृष्णः अवदत् यत् अहं पापेभ्यः मोक्षयिष्यामि. अहम् अस्मद् इति प्रातिपदिकस्य प्रथमाविभक्तिः एकवचनं. पापेभ्यः पञ्चमी विभक्तिः. पाप इति अवकारान्त नपुंसकलिङ्गपदं. मोक्षयिष्यामि लृट् लकारः अस्ति. मोक्ष इति धातुः किं भगिनि?
तत्र साधु एव मोक्षधातुः अस्ति. तत्र पापं मुच् धातुः भिन्नः भगिनि. मुच् धातुः अस्ति, मुञ्चति इति रूपं सिद्ध्यति. मुच् धातोः रूपं मुञ्चति, किन्तु मोक्षधातोः रूपं मोक्षयति अस्ति. मोक्षयति इति रूपं लट्लकाररूपम् अस्ति, किन्तु अत्र लृट् रूपं दत्तमस्ति. मोक्षयिष्यामि इति रूपं तत्र सिद्ध्यति. पापम् इति नपुंसकलिङ्गपदमस्ति. पापम् इत्यस्मिन् स्थाने किल्बिषम् इति अपि योजयितुं शक्नुमः. किल्बिषम् इत्युक्ते पापम्. पापम् इति शब्दस्य पञ्चमी विभक्ति. त्रीणि रूपाणि वक्तव्यानि पञ्चमी विभक्ति.
क्षम्यता. का? पापात् पापाभ्यां पापेभ्यः.
उत्तमं. पापाभ्याम् इत्यत्र अहं किञ्चित् पठितवती, अतः वदन्ती अस्ति. पापाभ्याम् इत्यत्र तत्र प्रातिपदिकं किमस्ति? पाप. प्रातिपदिकात् एव खलु सुप्रत्ययान् योजयामः. पाप इति प्रातिपदिकमस्ति. पाप इति प्रातिपदिकं स्वीकृत्य भ्याम् इति प्रत्ययं योजयामः. तृतीया विभक्ति द्विवचनं, चतुर्थी विभक्ति द्विवचनं, पञ्चमी विभक्ति द्विवचनं. त्रिषु स्थलेषु भ्याम् इति प्रत्ययं योजयामः. तत्र प्रातिपदिकं पाप अस्ति. पापयोगः भ्याम्. तत्र किमर्थं दीर्घादेशः भवति इति प्रश्ने सति तत्र सूत्रमस्ति. सुपीच इति सूत्रमस्ति. सुपीच इति सूत्रेण दीर्घादेशः भवति. अदन्त अङ्गं सुबन्तमङ्गम् अदन्तमङ्गम् अस्ति चेत् पश्चात् भ्याम् इति प्रत्ययः अस्ति. तत्र ययादिसुप्रत्यये परे यै प्रत्याहारे भकारः अस्ति. ययादिसुप्रत्यये परे सुपि च इति सूत्रेण दीर्घादेशः भवति इति कृत्वा पापाभ्याम् इति रूपं सिद्ध्यति. वस्तुतः प्रातिपदिकं पाप अस्ति. पापात् मोक्षयिष्यामि इति अर्थः अस्ति. मोक्षधातुः मोचने विमोचनम् इत्यस्मिन् अर्थे मोक्षधातुः अस्ति. मोक्षयिष्यामि इति लृटिरूपम् अस्ति. दर्शना भगिनी, लृटिप्रसङ्गे भवती यद् जानाति तद्वदतु.
भविष्यत्कालः अस्ति, अपि च अहं प्रक्रिया तु न जाने.
भवती यद् जानाति तद्वदतु. अपि च अत्र वदतु.
क्षम्यतां भगिनि, क्षम्यताम्.
आर्धधातुकलकारः.
आर्धधातुकलकारः, वदतु महोदय.
आर्धधातुकलकारः अत्र धातुः साक्षात् प्रत्ययं न पश्यति इति कारणेन स्या इति प्रत्ययः मध्ये आगच्छति इति कारणेन धातुः साक्षात् प्रत्ययं न पश्यति इति कारणेन आर्धधातुकलकारः भवति.
लृट्लकारः, आर्धधातुकलकारः, अपि च स्या इति लकारनिमित्तिकव्यकरणप्रत्ययः मध्ये आगत्य उपविशति. अपि च स्या इति प्रत्ययः सकारादिप्रत्ययः, सकारादिप्रत्ययः अस्ति इति कारणतः आर्धधातुकस्येड्वलादेः इति सूत्रेण इडनुकूलप्रत्ययः. आर्धधातुकलकारः अस्ति इति कारणतः इडागमचिन्तनम् अवश्यं करणीयम्. अत्र धातुः अपि इडनुकूलधातुः, लकारः अपि, तत्र स्या इति प्रत्ययः अपि इडनुकूलप्रत्ययः. इत्युक्ते वलादिवर्णः, इत्युक्ते वल् प्रत्याहारस्थवर्णः सकारः. अतः इडनुकूलः, इडागमयोग्यः अयं प्रत्ययः. अतः इडागमः भवति. आर्धधातुकप्रक्रिया, अतः इडागमचिन्तनम् अवश्यं करणीयम्. अतः इडागमः भवति इति मुख्या वार्ता. अपि च रूपं पश्यामश्चेत् अत्र णिच् अपि अस्ति इति अवगन्तुं शक्नुमः. मोक्ष इति लौकिकधातुः, मोक्षधातोः परं णिच् प्रत्ययं योजयामः. णिच् इति अस्मात् ई आयाति, मोक्षयोगः ई, मोक्षि इति तत्र रूपम् अस्ति. अपि च इडागमः भवति, इडागमः भवति, अपि च तत्र धातोः परं मोक्ष इति धातोः परम् आर्धधातुक स्या इति आर्धधातुक, स्या इति आर्धधातुकप्रत्ययः अस्ति इति कारणतः मोक्षी इति रूपमस्ति खलु. मोक्षयोगः णिच् इत्यस्मात् ई आयाति इति कारणतः मोक्षी इति नूतनधातुः, नूतनधातुः मोक्षी, णिजन्तधातुः. अतः स्या इति आर्धधातुकप्रत्ययं निमित्तीकृत्य तत्र सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा मोक्षे भवति. पश्चात् सन्धिकार्यं सर्वं भूत्वा मोक्ष ईष्यामि इति रूपं भवति. मोक्ष ईष्यामि. दर्शना भगिनी, नवरूपाणि वक्तुमिच्छति वा?
अहं मोक्षामि.
न, अत्र मोक्ष ईष्यामि इति रुटिरूपं दत्तमस्ति.
क्षम्यता, मोक्षयिष्यामि, मोक्षयिष्यातः किल.
तत्र प्रथमपुरुष एकवचनरूपं मोक्ष इष्यति.
मोक्षयिष्यति, मोक्षयिष्यतः किल. अहं मोक्षयिष्यन्ति, मोक्षयिष्यसि, मोक्षयिष्यथः, मोक्षयिष्यथ, मोक्षयिष्यामि, मोक्षयिष्यावः, मोक्षयिष्यामः.
उत्तमं. लट् रूपाणि यथा भवन्ति,
इति पृष्टवती किल न अपेक्षते तदर्थम्
उत्तममस्तु अत्र इत्युक्ते अहं किमर्थं पृष्टवती इत्युक्ते लटीरूपाणि यथा भवन्ति तथा एव तत्र साम्यम् अस्ति केवलं लृट् लकारप्रसङ्गे सिद्धप्रत्ययाः कथं भवन्ति इत्युक्ते स्यति स्यतः स्यन्ति स्यसि स्यथः स्यथ स्यामि स्यावः स्यामः एवं रूपाणि भवन्ति तत्र काठिन्यं नास्ति लृटिप्रसङ्गे मोक्षयिष्यति इति प्रथमपुरुषे एकवचनरूपं भवति अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि भवन्तः जानन्ति चेत् श्लोकः एवमस्ति अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मासुचः इति कृष्णः वदति श्लोके त्वा इति पदं दत्तमस्ति त्वा इत्युक्ते त्वाम् इत्युक्ते अन्यद्रूपमपि अस्ति इति अवगन्तव्यम् अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मासुचः इति श्रीकृष्णः वदति सर्वपापेभ्यः इति समस्तपदमस्ति सुन्दरमहोदय वदतु विग्रहवाक्यं सर्वपापेभ्यः
सर्वश्च असौ पापश्च सर्वपापः सोरि सर्वपापानि ओके सर्वाणि च तानि पापानि च सर्वपापानि योगे तेभ्यः सर्वपापेभ्यः इति भवति
उत्तमम् उत्तमम् इत्युक्ते तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति सर्वपापेभ्यः इति समस्तपदं पञ्चमी विभक्ति बहुवचनरूपम् अस्ति सर्वपापानि इति समस्तपदमस्ति किन्तु पञ्चमी विभक्तिरूपम् अस्ति सर्वाणि च तानि पापानि च इति विग्रहवाक्यं वक्तव्यं भवति विशेषणपूर्वपदकर्मधारयसमासः अस्ति माशुचः इत्युक्ते शोकं मा करोतु शोकं मा कुरु इति अर्थः अस्ति सर्वपापेभ्यः विमोचनं करिष्यामि इति श्रीकृष्णः अवदत् विमोचनं मुच् धातोः रूपमेव मोचनं मोक्षधातोः रूपं मोक्षणं विमोक्षणम् अस्ति विमोक्षणं पदमपि अस्ति विमोचनम् इति पदमपि अस्ति विमोचनम् इति पदं मुच् धातोः रूपं मोक्षणं इति मोक्षधातुः पृथक्तया अस्ति चुरादिगणे अस्ति इति कारणतः आहत्य अस्य अर्थः कः दर्शना भगिनी
पापानि कुर्मः चेत् अपि तस्य निरता स्मरणं कुर्मः चेत् सः पापेभ्यः मोक्षयिष्यति इति
उत्तमं मोक्षयिष्यामि इति कथनेन विमोचनं दास्यामि मोक्षणं दास्यामि इति वक्तुं शक्यते अग्रिमं वाक्यं भवती एव करोतु
सन्देहः अत्र मोक्षधातुः चुरादिगणे अस्ति चेत् मोक्षयिष्यामि इति तत्र णिच् अस्ति वा न वा इति किञ्चित् सन्देहः उत्पद्यते किल
अस्ति इत्युक्ते चुरादिगणीयधातूनां प्रसङ्गे स्वार्थे अपि णिच् विधीयते तस्य अर्थः कः इत्युक्ते अन्येषां गणानां प्रसङ्गे अन्येषां गणानां प्रसङ्गे केवलं प्रेरणार्थे एव णिच् प्रत्ययः विहितः भवति किन्तु चुरादिगणीयधातूनां प्रसङ्गे प्रेरणार्थे अपि णिच् विधीयते स्वार्थे अपि णिच् विधीयते स्वार्थे सत्यापपाशवीणातूल इति एकं दीर्घं सूत्रमस्ति तेन दीर्घसूत्रेण णिच् प्रत्ययः स्वार्थे अपि विहितः भवति चुरादिगणीयधातुषु तदेव चुरादिगणीयधातूनां वैशिष्ट्यं दर्शना भगिनी करोतु
मामेकं शरणं व्रज कृष्णः अवदत् यत् मामेकं शरणं व्रज अत्र सर्वान् धर्मान् परित्यज्य माम् एकं शरणं व्रज व्रज इति लोट्लकाररूपः अस्ति गच्छ इति
भगिनी भवती जानाति खलु श्लोकं जानाति खलु एकवारं स्मारयतु
झटिति न स्मरामि
सर्वधर्मान् परित्यज्य
त्यज्य मामेकं शरणं व्रज अहं त्वा सर्वे पापेभ्यः मोक्षयिष्यामि मा शुचः
उत्तमं स एव श्लोकः इत्युक्ते पूर्वतनं वाक्यमस्ति खलु अस्मिन् पूर्वतनवाक्यं यस्मिन् श्लोके अस्ति इदं वाक्यमपि तस्मिन् श्लोके एव अस्ति इत्युक्ते मामेकं शरणं व्रज इति वाक्यं तस्मिन्नेव श्लोके अस्ति सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इति श्रीकृष्णः वदति अत्र मामेकम् इति रूपम् अस्ति तत्र किं किम् अस्ति सन्धिकार्यम् अस्ति वा नास्ति वा
नास्ति नास्ति तत्र माम् एकम् इति माम् एकम् किं तत्
वर्णमेलनकार्यं
नास्ति तत् वर्णमेलनमेव अस्ति माम् एकं शरणं व्रज इति
उत्तमं मां योगः एकं तत्र वर्णमेलनमेव अस्ति व्यञ्जनसन्धिकार्यं नास्ति इत्युक्ते अनुस्वारसन्धिकार्यं नास्ति एकम् इत्यत्र ए इति वर्णः अच् वर्णः अस्ति हल् वर्णः नास्ति हल् वर्णः अस्ति चेदेव मोनुस्वारः सूत्रेण अनुस्वारसन्धिकार्यं भवति अत्र एकारः अच् वर्णः अस्ति अतः केवलं वर्णमेलनमेव मामेकं शरणं शरणम् इति रमेश महोदय भवान् वदतु कीदृशं पदं कीदृशं कृदन्तमस्ति
ल्युडन्तं
ल्युडन्तमस्ति वदतु
ल्युडन्तमस्ति
ल्युडन्तमस्ति तत्र महोदय इतोपि वदतु
ल्युडन्तमस्ति धातु कः धातु शरणं शरणं करः
तत्र धातोः रूपं वदामि श्रू इति दीर्घरूकारान्तधातुः श्रू
श्रू इति दीर्घरूकारान्तधातुः तत्र
कार्यं वदतु कार्याणि वदतु सोपानेन वदतु
श्रू इति धातु ल्युट् इति प्रत्ययः ल्युट् इति प्रत्ययस्य लकारः लषक्व तद्धिते इति सूत्रेण तद्धितप्रत्ययः नास्ति तर्हि लकारस्य इत्संज्ञा भूत्वा लोपः भवति टकारस्य अपि हलन्त्यम् इति सूत्रेण लोपः भवति ल्यु केवलम् अवशिष्यते युवोरनाकौ इति सूत्रेण यु स्थाने अण् अन् आदेशः भवति तर्हि इदानीं स्थितिः भवति शृ योगः अन् अन् इति आर्धधातुक प्रत्ययः अस्ति तर्हि आर्धधातुकं शृ इति इगन्तमस्ति तर्हि सार्वधातुक आर्धधातुकयोः इति सूत्रेण ऋ स्थाने अकार आदेशः भवति गुण आदेशः भवति अकारः उरण्परः इति सूत्रेण रेफः अपि आगच्छति शर् योगः अण् इति स्थिति शरण इति रूपं सिद्ध्यति
सम्यक् महोदय बहु उत्तमम् अत्र रेफकारणात् अणत्वं भवति अन इत्यत्र दन्त्यनकारः एव अस्ति किन्तु श्रू इति शर् भवति खलु तदा रेफः अस्ति खलु अतः रेफकारणात् दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः आयाति शरणम् इति रूपं सिद्ध्यति शरणम् इत्युक्ते आश्रयः मामेकं शरणं व्रज व्रज इति पदं तिङन्तपदम् अत्र दर्शना भगिनी व्रज इति लोट्लकार मध्यमपुरुष एकवचनरूपमस्ति नवरूपाणि स्मारयति वा
व्रजतु व्रजतां व्रजन्तु व्रज व्रजतं व्रजत व्रजाणि व्रजाव व्रजाम
व्रजानि इत्यत्र किमर्थम् अणत्वं नास्ति
बाधकवर्णः अस्ति ज
जकारः बाधकवर्णः अस्ति इत्यतः
जकारः जकारः
बहु सम्यक् तत्र णत्वं न भवति व्रजानि इति रूपमेव सिद्ध्यति बहु सम्यक् अधुना रमेश महोदय भवान् करोतु
धन्यवादः
धन्यवादाः
सदोषमपि सहजं कर्म न त्यजेत् कृष्णः अवदत् यत् सदोषमपि सहजं कर्म न त्यजेत् इति सदोषम् अपि सदोषं दोषेण सह सदोषम् अव्ययी भवन कीदृशसमासः
सदोषम् इति अव्ययीभावसमासः
अव्ययीभावसमासः
तत्र
दोषेण सह
तत्र प्रथमम् एकं सूत्रमस्ति अव्ययीभावसमासस्य प्रसङ्गे एकं दीर्घं सूत्रम् अस्ति तत्र प्रथमं सूत्रमेव तत्र केषु केषु अर्थेषु तद् अव्ययमस्ति चेत् तादृशम् अव्ययपदम् आदौ अस्ति चेत् अव्ययीभावसमासः भवति इति तेन सूत्रेण उच्यते सः शब्दस्य प्रयोगः क्रियते अस्मिन् पदे सः शब्दस्य प्रयोगः सः इति अव्ययमस्ति सः इति अव्ययपदस्य प्रयोगः भिन्नभिन्न अर्थेषु दीयते तस्मिन् सूत्रे सः इति अव्ययपदस्य बहवः अर्थाः सन्ति इति तेन सूत्रेण उच्यते अत्र तु सः इति अव्ययपदं योजितमस्ति किन्तु सदोषम् इति रूपमेव सिद्ध्यति सदोषम् इति पदं क्रियाविशेषणं भवति अपि च अव्ययीभावसमासयुक्तं पदं भवति पदमपि अव्ययमेव इत्युक्ते अव्ययीभावसमासयुक्तानि पदानि अव्ययानि एव भवन्ति सदोषम् इत्युक्ते दोषयुक्तम् इति अर्थः इदानीं वदतु
अपि इति अव्ययं सहजं कर्म सहजं कर्म सहजम् इति विशेषणमस्ति कर्मस्य विशेषणं सहजं तर्हि तत् नपुंसके अस्ति नपुंसकलिङ्गे अस्ति तत्
कर्म इति नपुंसकलिङ्गे पदं खलु अतः सहजमपि नपुंसकलिङ्गे एव अस्ति सः जायते इति
सहजं
सः जायते इति सहजम् इति भाति अत्र कर्म इति शब्दस्य विशेषणमस्ति इति कारणतः सहजं कर्म भवान् वदतु
न त्यजेत् विधिलिङ्ग्लकारः अस्ति त्यजेत् भवेत् भवेत् भवतां भवेयुः विधिलिङ्ग्लकारः एव अस्ति प्रथमपुरुष एकवचनं
प्रथमपुरुष एकवचनं विधिलिङ्ग्लकाररूपमस्ति त्यजेत् त्यजेतां त्यजेयुः भवेत् भवेतां भवेयुः एवं रूपाणि भवन्ति अस्य वाक्यस्य अर्थः कः
दोषेण युक्तमपि यद् जन्मना यद् कर्म विदितमस्ति तदेव करणीयं तस्य न त्यागं करणीयम् इति एव तत्र आशयः
उत्तमं दोषयुक्तं चेदपि सहजं कर्म न त्यजेत् कौन्तेय इति वदति धूमेन धूमेन अग्निः इव आवृतः अस्ति चेदपि इत्युक्ते अग्निः धूमेन आवृतमस्ति तथापि तादृशरीत्या एव एवमेव सहजं कर्म सदोषमपि न मा त्यजतु इति कृष्णेन उक्तमस्ति अग्रिमं वाक्यं करोतु
अग्रिमवाक्यं श्रद्धावान् लभते ज्ञानं कृष्णः अवदत् यत् श्रद्धावान् लभते ज्ञानम् इति ज्ञानम् इति न श्रद्धावान् इति यस्य यस्मिन् श्रद्धा अस्ति सः श्रद्धावान् श्रद्धा श्रद्धवत् इति पुल्लिङ्ग तकारान्त प्रातिपदिकं श्रद्धावान् इति प्रथम श्रद्धावान् इति प्रथमाविभक्ति एकवचनरूपम् अस्ति.
त्रिषु लिङ्गेषु रूपाणि वदतु.
श्रद्धावान् श्रद्धावत् करो श्रद्धावन्तीय
न न अत्र त्रिषु लिङ्गेषु रूपाणि
त्रिषु लिङ्ग श्रद्धावान् श्रद्धावत् इति नपुंसकलिङ्गं भवति स्त्रीलिङ्गरूपं
श्रद्धावती
श्रद्धावती इति एव भवति. हा श्रद्धावती इति एव
इत्युक्ते अत्र मतुप्रत्ययान्तशब्दः सत्यवान् गुणवान् इव श्रद्धावान् अत्र श्रद्धा इति आकारान्तप्रातिपदिकमस्ति. आकारान्तप्रातिपदिकमस्ति चेदेव तत्र अस्ति चेत् तत्र यद्यपि प्रत्ययः मतुप् अस्ति तथापि तत्र वकारादेशः भवति इत्यतः श्रद्धावान् इति रूपम् अस्ति. मतुप् इति प्रत्ययः अस्ति अस्मिन् पदे तद्यत् प्रत्ययान्तपदमस्ति. श्रद्धा इति प्रातिपदिकमस्ति. प्रातिपदिकात् मतुप् इति तद्धितप्रत्ययस्य योजनेन श्रद्धावत् इति प्रातिपदिकं सिद्ध्यति. तस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. स्त्रीलिङ्गे श्रद्धावती, पुंलिङ्गे श्रद्धावान्, नपुंसकलिङ्गे श्रद्धावत् इति रूपाणि भवन्ति. तत्र श्रत् इति उपसर्गतुल्यं पदमस्ति. वस्तुतः धातुः धा धातुः. श्रत् इति उपसर्गतुल्यं पदं स्वीकृत्य धा इति धातुतः एकः अन्यप्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, तेन श्रद्धा इति आकारान्तपदं सिद्ध्यति. अत्र सन्धिकार्यम् अकृत्वा महोदय भवतः गृहे ध्वनिः अस्ति महोदय, अतः म्यूट् कृतवती. अत्र श्रद्धावान् लभते ज्ञानम् इत्यत्र अस्मिन् पुस्तके इत्युक्ते अस्माकं पुटे सन्धिकार्यम् अकृत्वा लिखितमस्ति, किन्तु श्लोके सन्धिकार्यं कृत्वा लिखितमस्ति. श्रद्धावान् योगः लभते इति तत्र सन्धिकार्यं कृत्वा लिखितमस्ति. भवान् जानाति चेत् वदतु.
श्रद्धावान् लभते इति वदति ला इत् अस्ति. श्रद्धावान् लभते ज्ञानम् इत्येव
भवति. तत्र इतोपि किं चिन्तनमस्ति खलु, वदतु.
तत्र
श्रद्धावान् लभते, श्रद्धावान् लभते ज्ञानम्.
स्टोर्लि स्टोर्लि सन्धिः किल,
वदतु.
स्टोर्लि सन्धिः. श्रद्धावान् योगे लभते, श्रद्धावान् लभते
इत्युक्ते. सूर्यकुमारी भगिनी भवती वदतु.
अनुनासिकलकारः,
अनुनासिकलकारः अस्ति तत्र. तोर्लि इति सूत्रेण कार्यं भवति. श्रद्धावान् योगः लभते इत्यत्र श्रद्धावान् इति पदमस्ति, पदान्तनकारः अस्ति. भवान् श्रद्धावान् इत्यत्र पदान्तनकारः अस्ति इत्युक्ते पदान्तनकारः अस्ति. पश्चात् लकारः परवर्णः अस्ति इत्युक्ते नकारात् परे लकारः अस्ति. तस्यां दशायां तोर्लि इति सूत्रेण अनुनासिकलकारः आदेशः भवति. परसवर्णसन्धिः इति वदामः, परसवर्णादेशः भवति. अत्र परसवर्णः कः इत्युक्ते अनुनासिकलकारः एव परसवर्णः. अतः तत्र नकारस्य स्थाने नूतनतया तत्र नूतनतया नास्ति, तस्य स्थाने एव आदेशः एव आगमः नास्ति. नकारस्य स्थाने अनुनासिकलकारादेशः भवति. श्लोके तादृशं रूपं दत्तमस्ति. श्रद्धावान् लभते ज्ञानम् इति दत्तमस्ति. लभते इत्यत्र रमेश महोदय वदतु.
लभते लभते लभेते लभन्ति लभते
लटीरूपं खलु,
लटि एव अस्ति,
लटिरूपमस्ति. तत्र धातुः लभ् अस्ति किन्तु आत्मनेपदी धातुः इति कारणतः लभते इति रूपमस्ति. लभते इत्युक्ते अन्यत् पदं वदतु, पर्यायवाचकपदम्.
uh,
प्राप्यते
प्राप्यते प्राप्यते प्राप्नोति लभते तस्य कृते प्राप्नोति इति वक्तव्यं लभ्यते अस्ति चेत् प्राप्यते इति भवति खलु
विन्दति विन्दति अपि भवितुम् अर्हति किल विन्दति
विन्दति विन्दति अपि भवति
नहि ज्ञानेन
विन्दति इति तस्य अर्थः अपि प्राप्नोति इति एव लभते प्राप्नोति लभ्यते प्राप्यते इति रूपाणि भवन्ति
स्वीकरोति स्वीकरोति अपि भवितुम् अर्हति किल
प्राप्नोति एव महोदय
प्राप्नोति ओके
अत्र अत्र वाक्यं पश्यतु श्रद्धावान् ज्ञानं लभते
लभते ओके
श्रद्धावान् ज्ञानं प्राप्नोति
आम् आम्
तत्र लभधातोः प्रसङ्गे वयं किं पठितवन्तः तत्र उपदेशावस्थायां तस्य रूपं डुलभांश् अस्ति भवान् वदतु डुलभांश् इत्यत्र औपदेशिकधातुतः इत्संज्ञकवर्णानां लोपकार्यं करोतु
अहमेव किल दुलभांश् इति तत्र शकारः हलन्त्यम् इति सूत्रेण शकारः इत्संज्ञा भूत्वा लोपः भवति तत्र अनुनासिक अकारः उपदेशे अजनुनासिक इत् इति उपदेशे अजनुनासिक इत् इति सूत्रेण तदपि इत्संज्ञा भूत्वा लोपः भवति डु इति वर्णसमूहः अपि इत्संज्ञा भूत्वा लोपः भवति लभ् इति धातु लौकिकधातुः एव अवशिष्यते लभ् लभ्यो आत्मनेपदि लभते
उत्तमं तत्र आदिर्निटुडवः इति सूत्रेण डु इति वर्णसमुदायस्य इति संज्ञा भवति अत्र लौकिकधातुः लभ् अस्ति अपि च आत्मनेपदि धातुः भवति तत्र लभ् धातोः कृतान्तरूपं किमस्ति
लब्धः
तावत् रूपं किमस्ति
लब्धवान्
तुमुन् रूपं
तुमुन् रूपं लब्धुं
क्तिन् प्रत्ययान्तरूपं
तिन् प्रत्ययान्तरूपं लब्धिः लब्धिः इति
लब्धिः इति रूपम् अस्ति किन्तु अत्र ल्युडन्तरूपं वदतु
ल्युट् ल्युडन्तं लभनम् ओके लब्धनम् लभनम् लभनम् वा
न
समथिङ्ग् डिफरेण्ट्
लाभनम् लाभनम्
न न अत्र रमेश महोदय वदतु महोदय अस्ति वा
लाभम्
वदतु
लाभं सम्यक् अस्ति किं भगिनि
लाभः लाभः पुंलिङ्गपदमेव न तत्र एकं वैशिष्ट्यम् अस्ति लम्भनम् लम्भनं भवति इत्युक्ते लम्भनम् इति तत्र वैशिष्ट्यम् अस्ति तदर्थमेव पृष्टवती लभधातोः ल्युडन्तरूपं लम्भनं लम्भनम् इत्यत्र लभेश्च इति एकं सूत्रमस्ति तेन सूत्रेण विशेषतया नुमागमः भवति अतः लम्भनम् इति रूपं भवति नुमागमसम्बद्धसूत्राणि कानि इति पश्यामश्चेत् तत्र इदं सूत्रं तत्र आयाति लभेश्च इति सूत्रेण नुमागमः भवति आगमः इति कथनेन नूतनतया मित्रवत् आगत्य अत्र उपविशति नुम आगमः तेन सूत्रेण भवति इति तोनुं धातोः इति सूत्रं पश्यामश्चेत् तत् सूत्रं नुमागमप्रकरणे अस्ति नुमागमसम्बद्धानि सूत्राणि कानि इति पठामश्चेत् तत्र इदं सूत्रमपि तत्र द्रष्टुं शक्नुमः लभ्यश्च सूत्रेण नूतनतया नुमागमः भवति अतः लम्भनम् इति रूपं सिध्यति अत्र अजादिप्रत्यये परे अजादिप्रत्यये परे एव नुमागमः भवति अत्र अजादिप्रत्ययः कः अन इति ल्युडन्तम् इत्यत्र ल्युट् इत्यत्र युवोरनाकौ इति सूत्रेण अन आदिष्टः भवति खलु. अन इत्यत्र अजादिप्रत्ययः अस्ति, अजादिप्रत्यये परे नुमागमः भवति. अपि च तत्र केचन नियमाः सन्ति, शपं विहाय अपि च लिट्लकारं विहाय अन्येषु अजादिप्रत्ययेषु परेषु नुमागमः भवति लभेश्च सूत्रेण. अतः ल्युडन्तरूपं लम्भनम् इति भवति. अस्तु अग्रे सुन्दरमहोदय भवान् पठतु अग्रे.
एकनिमिषम् ओके. अहं लोकक्षयकृत् प्रवृद्धः कालः अस्मि. ओके, श्रीकृष्णः वदति यत् अहं लोकक्षयकृत् प्रवृद्धः कालः अस्मि, कालोऽस्मि इत्यपि वक्तुं शक्यते. ओके, सो अत्र
तत्र कालोऽस्मि, कालोऽस्मि इत्यत्र सन्धिकार्याणि वदतु.
सन्धिकार्य कालः तत्र प्रथमं विसर्गः विसर्ग उत्वसन्धिः प्रथमं भवति, तदनन्तरं गुणः भवति कालो इत्यपि, तदनन्तरं पूर्वरूपसन्धिः भवति कालोऽस्मि इति अन्तिमं रूपं सिद्ध्यति. अवग्रहचिह्नं भवति तत्र, कालो अवग्रहचिह्नं स्मि तदेव.
उत्तमं, तत्र त्रीणि सन्धिकार्याणि सन्ति. अस्तु, लोकक्षयकृत् इति एकमेव पदमस्ति, लोकक्षयकृत् इति समस्तपदमस्ति. तत्र पृथक्तया पदविच्छेदं कृत्वा भवान् वदतु किं किं वक्तव्यम्.
लोकानां क्षय, लोकानां क्षयः लोकक्षयः, लोकक्षय क्षयस्य कृत् लोकक्षयस्य कृत् कृत् इति भवति वा,
करणं करणं.
तत्र लोकानां क्षयः तावत्पर्यन्तं समस्तपदं वदतु.
लोकानां क्षयः तत्र तत्पुरुषसमासः, षष्ठी तत्पुरुषसमासः लोकानां क्षयः. क्षि धातुतः घञ् प्रत्ययस्य योजनेन क्षयः इति पदं सिद्ध्यति.
घञ् नास्ति, घञ् नास्ति, घञ् नास्ति, क्षि धातुतः एव क्षयः आयाति, एरच् सूत्रेण आयाति. जि जयः, क्षि क्षयः इत्यादीनि रूपाणि तत्र एरच् इति सूत्रेण ईवर्णान्तधातोः परम् अच् प्रत्ययस्य विधानं भवति इति साधु एव. तत्र यथा महोदयेन उक्तं, षष्टितत्पुरुषसमासः अस्ति, लोकानां क्षयः लोकक्षयः इति समस्तपदमस्ति. लोकक्षयः इति समस्तपदं, पश्चात् लोकक्षयं यः करोति सः लोकक्षयकृत्, क्षयकृत् यः क्षयं करोति सः क्षयकृत्. तत्र क्रीप् इति प्रत्ययः अस्ति, उपपदसमासः अस्ति. क्षयं करोति यः सः क्षयकृत्. महोदय भवान् वदतु, यः शास्त्रं करोति
सः शास्त्रकृत्,
यः कर्म करोति
सः कर्मकृत्,
यः कल्याणं करोति
सः कल्याणकृत्,
यः काव्यं करोति
सः काव्यकृत्.
तादृशरीत्या एव अत्र, तादृशरीत्या एव अत्र क्षयं करोति इति क्षयकृत्. तत्र क्विप् इति प्रत्ययः अस्ति, लोकक्षयं करोति इति लोकक्षयकृत् इति रूपं सिद्ध्यति. प्रवृद्धः इत्यत्र किं किं चिन्तनमस्ति.
प्र इति उपसर्गपूर्वक वृत् वृत् धातोः
न न
वर्द् वर्त् इति धातुः
न
वर्द्
न. अत्र रमेश महोदय वदतु, प्रवृद्धः
इति उपसर्गः अस्ति, तत् सम्यक् एव. धातुः
वृद्ध
वृद्ध तान्तपदमस्ति, तर्हि धातुः वृद्ध एव वा
वृद्ध वृद्धधातुः वृद्धधातोः लटीरूपं किमस्ति
वर्धते
वर्धते
वर्धते आत्मनेपदि धातु अस्ति
जानाति खलु उत्तमं वर्धते इति रूपमस्ति वृद्धधातोः रूपमेव वर्धते वर्धते इति लटिरूपमस्ति आत्मनेपदिरूपमस्ति अपि च तत्र अकर्मकधातुः सस्यं वर्धते तत्र कर्मपदस्य आवश्यकता एव नास्ति अकर्मकधातुः अतः सस्यं वर्धते तत्र वर्धते इत्यत्र गुणकार्यं भवति वृद्धधातुः अस्ति धातुः वृद्ध अस्ति उपधायां ऋकारः अस्ति वृद्धधातोः लटिरूपं वर्धते भवान् वदतु तत्र किं कार्यमस्ति किमर्थं गुणः
वृद्धयोगः ते इति त इति आत्मनेपदि प्रत्ययः अस्ति तत्र सार्वधातुकप्रत्ययः अस्ति भवादिगणे प्रत्ययः अस्ति शप् आगच्छति मध्ये वर्धते शप् मध्ये आगच्छति तर्हि सार्वधातुकप्रत्ययः अस्ति तिप् त इति सार्वधातुकप्रत्ययः अस्ति कर्तरि अर्थे अस्ति तर्हि कर्तरि शप् इति सूत्रेण भवादिगणीय अस्ति वृद्ध इति धातुः तर्हि शप् विकरणप्रत्ययः आगच्छति तत्र शकारः इत्संज्ञा अस्ति पकारः इत्संज्ञा अस्ति अकारः एव तिष्ठति तदपि सार्वधातुक तिंशित् सार्वधातुकमिति सूत्रेण तदपि सार्वधातुकसंज्ञा प्राप्नोति तत्र वृद्ध इति धातोः इक् उपधायाम् इक् इगन्त अस्ति तर्हि पुगन्तलघुपदस्य इति सूत्रेण इक् स्थाने ऋकारस्य स्थाने अकारः आगच्छति गुणा भूत्वा तत्र उरण्ड्रपरः इति सूत्रेण वर्द् इति वर्द् हा रेफः वृ वृ
वृद्धिते इत्यस्य रूपं वर्ध् भवति वृद्धि इत्यस्य रूपं गुणकार्यं भूत्वा वर्ध् भवति वर्धियोगः अयोगः ते
अयोगः त वर्धत टित्तात्मनेपदे पदि आत्मनेपदानां तेरे इति सूत्रेण टिसंज्ञभागस्य लट् टित् अस्ति तर्हि टिसंज्ञभागः अत्र अकारः अस्ति तस्य एकारादेशः भवति ते इति रूपं सिद्ध्यति वर्धते इति रूपं
तत्र प्राव् उपसर्गः अस्ति चेत् प्रवर्धते इति रूपं भवति वर्धते इत्यत्र गुणकार्यमस्ति सा प्रक्रिया सार्वधातुकप्रक्रिया प्रवृद्धः इत्यत्र गुणकार्यं किमर्थं नास्ति
प्रवृद्धः तान्तपदं ककारः अस्ति खलु तत्र कित् कित् अस्ति तर्हि प्रत्ययः कित् अस्ति कित् गुण नीति च इति सूत्रेण गुणबाधकः भवति
वदतु
तर्हि गुणः न भवति वृद्धेव रूपं भवति वृद्धयोगः त सन्धिकार्यं भूत्वा वृद्ध इति भवति प्रथमं जशस्ततोर्धोधः प्रायः तत्पश्चात् जलां जश् जषि द्वयोः कार्यम् अस्ति इति अहं चिन्तयामि
प्रवृद्धः इति रूपं भवति वृद्ध इति प्रातिपदिकमस्ति तत्र वृद्धधातोः क्तान्तरूपम् अस्ति तत्र गुणकार्यं न भवति क्ताप्रत्ययः कित् प्रत्ययः अस्ति कित् प्रत्यये परे क्निति च सूत्रेण गुणनिषेधः भवति अतः वृद्धियोगः क्ता तत्र सन्धिकार्याणि भूत्वा वृद्ध इति रूपं भवति प्रवृद्धः इत्यस्मिन् स्थाने प्रवर्धते स्म इति अपि योजयितुं शक्नुमः स्म इति पदं प्रयुज्य लेखितुं शक्नुमः प्रवर्धते स्म वस्तुतः अस्य अर्थः कः सुन्दरमहोदय वदतु वाक्यस्य अर्थः कः
वाक्यस्य अर्थः अहं लोकक्षयक प्रवृद्धः कालः अस्मि इत्युक्ते अहं लोके यः क्षय करोति यः कोऽपि लोके क्षयं करोति तस्य कृते अहं कालरूपेण वर्धयित्वा अहं तत्रैव तिष्ठामि इति अर्थः किल कालरूपेण अहं यमः यमरूपेण अहं तत्रैव तिष्ठामि यः कोऽपि लोकानां क्षयं करोति तेषां कृते अहं यमधर्मरूपेण तिष्ठामि तस्य नाशार्थम् अहमेव अस्मि तादृशम्
अस्तु. अत्र रमेश महोदय भवान् किम् अवगतवान्? अहं लोकक्षयकृत् प्रवृद्धः कालः अस्मि.
भगवान् वदति सः कालः अस्ति. कीदृशकालः? लोकक्षयकृत् प्रवृद्धः कालः. लोकक्षयकृत् इत्युक्ते कालः एव लोकस्य क्षयमपि करोति इति लोकक्षयकृत् भवति कालः. कालेन सर्वं नाशं सर्वस्य नाशनं जायते इति.
अहं पृच्छामि अहं कीदृशः अस्मि? अहं भगिनी भवती वदतु, अहं कीदृशः अस्मि?
लोकक्षयकृत् अस्ति सः, इत्युक्ते सः क्षयमपि करोति, अग्रे सृजति अपि. तर्हि कालः अस्ति, विभूतिसन्धिः अस्ति किल, विभूतिः.
तादृश अर्थः अत्र नास्ति. अहं कीदृशः अस्मि? अहं कालः अस्मि. कीदृशकालः? प्रवृद्धः कालः अस्मि. अहं प्रवृद्धः कालः अस्मि. इतोपि कीदृशः? अहं लोकक्षयकृत्. अहं कल्याणकृत् न, अहं लोकक्षयकृत्. अहं प्रवृद्धः कालः अस्मि. रमेश महोदय भवान् इतोपि वदतु.
प्रवृद्धः इत्युक्ते बहुकाल यत् यस्य वर्धनम् अभवत् तादृशकालः वा?
कालः इत्युक्ते समयः.
समयः
यद्यपि सुन्दरमहोदयेन उक्तं तत्र कालः इत्युक्ते यमः इति अर्थः अस्ति, किन्तु अत्र तु कालः इत्युक्ते समयः. समयः एव प्रवृद्धः कालः अहमस्मि. प्रवृद्धः कालः कीदृशः? लोकक्षयकृत्. अत्र लघुवाक्यमस्ति अहमस्मि. अहं कीदृशः? अहं कालः. अहं प्रवृद्धः कालः. अहं लोकक्षयकृत् अपि इति अहम् उक्तवती. इत्युक्ते अहं सर्वान् लोकान् संहर्तुं प्रवृद्धः कालः अस्मि. लोकान् संहर्तुं प्रवृद्धः कालः अस्मि इति अत्र वार्ता. अस्मि इति पदमस्ति.
एकनिमिषं भगिनि, अत्र अहमेव लोकक्षयकृत् इति भगवान् वदति वा? स्वयमेव लोकक्षयकृत् इति वदति वा भगवान्?
इति चिन्तयामि. अहं कालः अस्मि, प्रवृद्धः कालः अस्मि, अपि च लोकक्षयकृत्.
द्वयमपि पदं विशेषणं भवति किल, कालः इति पदस्य
विशेषणं भवति इति. अहमेव कालः, अहमेव लोकक्षयकृत्.
कीदृशः कालः इत्युक्ते प्रवृद्धः कालः.
प्रवृद्धः इत्यस्य प्राधान्यमस्ति खलु?
प्राधान्यं कालः इति पदस्य विशेषणम् अस्ति. सामान्यकालः नास्ति, प्रवृद्धः कालः अस्ति इति विशेषणमस्ति.
रमेश महोदय, प्रवृद्धः कालः इत्यस्य अर्थः इतोपि किञ्चित् वदतु.
तदेव यत् उक्तवान् तत् सम्यक् न आसीत् वा?
सम्यक् एव.
तर्हि बहुकालः यत् बहुकालान्तरं तत् तस्य वर्धनमपि अभवत् इति प्रवृद्धः इति वा?
तत्र प्रवृद्धः इत्यस्य विशेषणमेव, किन्तु तस्य प्राधान्यमस्ति, तस्य पदस्य प्राधान्यमस्ति.
न न अवगच्छामि इति अहं चिन्तयामि तत्
प्रकृष्टेन वृद्ध प्रकृष्टेन वृद्धः अस्ति इति
सम्यक् अस्तु अत्र कल्याणकृत् इति कथनेन कल्याणं यः करोति सः कल्याणकृत् किन्तु अत्र किं लिखितमस्ति लोकक्षयकृत् कालः लोकक्षयकृत् इति अस्ति अस्तु अग्रे सरेम इदानीं दर्शना भगिनी भवती करोतु अग्रिमं वाक्यं
भगिनी एकः प्रश्नः अस्ति तत्र लोकक्षयकृत् इति भगवन्तः विशेषणम् एव किल
विशेषणानि एव अहं शब्दस्य विशेषणानि एव
विशेषणम् अस्तु अस्तु धन्यवादः
लोकक्षयकृत्
योगक्षेमं
तत्र लोकक्षयकृत् प्रवृद्धः कालः अहमस्मि अस्तु अहमपि किञ्चित् अवगतवती अस्तु भवती करोतु
योगक्षेमं वहाम्यहं तर्हि अत्र अहं भवन्तः योगक्षेमं प्रति पश्यामि इति
सम्पूर्णतया श्लोकं वक्तुमिच्छति वा अनन्याश्चिन्तयन्तो माम्
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् तर्हि वहामि
वदतु
वहामि अहं तत्र यण् सन्धि भूत्वा वहाम्यहम् अत्र योगक्षेमं तत्र समासः अस्ति कीदृशः समासः न जाने योगस्य क्षेमं किं भगिनि षष्ठी तत्पुरुषः अस्ति योगमपि क्षेमं योगमपि योगमपि क्षेमं
तत्र किं वक्तव्यं तत्र विग्रहवाक्यं कथं भवति योगः च क्षेमं च अनयोः समाहारः इति वक्तव्यमस्ति योगः इति पुंलिङ्गपदं क्षेमं नपुंसकलिङ्गपदं तत्र पदार्थद्वयमस्ति द्वन्द्वसमासः किन्तु कीदृशद्वन्द्वसमासः समाहारद्वन्द्वसमासः योगः च क्षेमञ्च अनयोः समाहारः इति विग्रहवाक्यं वक्तव्यमस्ति तत्र समाहारद्वन्द्वसमासः अस्ति योगः इत्युक्ते किम्
योगः इत्युक्ते तत्र that he is always in his with God in mind
tatra spashta ardhah asti yogah ityukte apraptasya labham apraptasya praptih idanim paryantam yat na agatam tasya agamanam apraptasya labham apraptasya praptih apraptasya labdhih yad na agatam tad agacchati yogah asti chet क्षेमम् इत्युक्ते प्राप्तस्य
परिरक्षणं सत्यं
वदतु
कृतवन्तः आदौ अस्य पदस्य एनालिसिस्
उत्तमं तत्र अप्राप्तस्य प्रापणं प्रापणम् इति कथनेन ल्युडन्तपदमस्ति अप्राप्तस्य प्रापणं तस्य रक्षणं च अप्राप्तस्य प्रापणम् एव योगः प्राप्तस्य परिरक्षणं परिपालनं स्थितस्य परिपालनं स्थितस्य परिरक्षणं एव क्षेमम् इति भवति उभयमपि अहं करोमि इति अर्थः अस्ति तत्र उभयमपि अहं प्रापयामि इति वदामि वाक्यम् उभयमपि अहं प्रापयामि अहं ददामि अथवा दास्यामि प्रापयामि इत्यत्र सूर्यकुमारी भगिनी किं किम् अस्ति प्रापयामि
निजन्तं
प्रापियोगः उत्तमपुरुषस्य प्रापि
खलु निच्छस्ति खलु
आं भगिनि
उत्तमम् अत्र
प्रापय भवति प्रापयामि भवति
उत्तमम् अत्र साधारणतया लटीर् अहं प्राप्नोमि साधारणतया किं वदामः अहं प्राप्नोमि इति वदामि किन्तु अत्र परमात्मना किमुक्तमस्ति अहं प्रापयामि अहं दापयामि इति भगवान् वदति णिजन्तयुक्तं रूपमेव तत्र साधु भवति अहं प्राप्नोमि इति कथनेन तत्र अणिजन्तलटीरूपं प्राप्नोमि किन्तु भगवता किमुक्तमस्ति योगक्षेमम् अहं प्रापयामि अहं दापयामि इति वदति तत्र अर्थः कः किमर्थं निजन्तरूपमेव तत्र साधु भवति रमेश महोदय वदतु किमर्थं निजन्तं वक्तव्यम्
सः कारयिष्यति
कारयिष्यति कारयति भगवान्
कारयति सत्यं कारयति सत्यं
भगवान् कारयति निजन्तरूपं किमर्थं निजन्तं तत्र साधु अहं करोमि इति न वदति अहं कारयामि अहं प्रापयामि अहं दापयामि
अस्माकं कृते करोति इति सः अस्माकं कृते करोति एतत् किम् अनुग्रहः
अत्र
किमपि सः तस्य किमपि कार्यं न विद्यते इति कर्ता न भवति किमपि कार्यस्य तर्हि कारयति इति
कारयति सः कारयति भगवान् कारयति कर्ता न भवति उत्तमं तदुभयमपि योगक्षेमम् उभयमपि अहं प्रापयामि इति वदति अत्र वहामि वहामि इत्यस्य अर्थः कारयामि दापयामि प्रापयामि इति एव स्वीकर्तव्यमस्ति तत्र अपि च भगिन्या उक्तमेव यण्सन्धि कार्यमस्ति वहामि योगः अहं वहाम्यहम् इति भवति सूर्यकुमारी भगिनी अग्रिमं वाक्यं करोतु
भगिनि आत्मना आत्मानम् उद्धरेत् आत्मना आत्मा आकारान्त स्त्रीलिङ्गपदमस्ति आत्मना तृतीय एकवचनमस्ति आत्मानम् लुडन्तमस्ति आत्मानम् ओ आत्मानम्
आत्मन् प्रातिपदिकं द्वितीयविभक्ति एकवचनं
ओके
तत्र एकवारं स्मारयति वा आत्मन् प्रातिपदिकं स्वीकृत्य पुंलिङ्गपदमस्ति आत्मन् इति पुंलिङ्गपदमस्ति नकारान्तप्रातिपदिकमस्ति द्वितीयापर्यन्तं रूपाणि वदतु
आत्मा आत्मानौ आत्मानः आत्मानौ आत्मनः
उत्तमम् आत्मानम् इति द्वितीयाविभक्ति एकवचनरूपमस्ति उत्तमम् अत्र आत्मना इति तृतीयाविभक्तिः अस्ति उद्धरेत् वदतु
उत्सर्गसः रं धातु अस्ति वा
न तत्र तत्र उत् उपसर्गपूर्वक धरेत् धरेत् इति रूपमस्ति महोदय भवान् वदतु तत्र सम्पूर्णतया किं किं भवति महोदय रमेश महोदय वदतु
धृ धातु भवेत् भवतां भवेयुः विधिलिङ्गरूपमस्ति उद्धरेत् इति रूपं धृ धातु धर् इति भवति गुण भूत्वा धर् इति भवति भवेत् प्रक्रिया न जानामि महोदय
चिन्ता मास्तु तत्र भवेत् इव भवेत् इव भवेत् इति विधिलिङ्गलकारः उत्तमपुरुष क्षम्यतां प्रथमपुरुष एकवचनरूपमस्ति भवेत् धरेत् ध्रुधातोः रूपमेव धरेत् किन्तु ध्रुधातोः लटीरूपं धरति धरति अस्ति ध्रु इति धातुः अस्ति उत् उपसर्गपूर्वकः अस्ति इत्यतः सन्धिकार्यं भूत्वा उद्धरेत् इति भवति उद्धरेत् इत्यस्मिन् स्थाने उन्नयति इति रूपमपि साधु भवति उन्नयति उन्नयति इति कथनेन उपरि नयति इति अर्थः अस्ति उद्धरति उद्धरति इति लटीरूपम् उद्धरेत् इति विधिलिङ्गरूपम् अस्ति ध्रुधारणे इत्यस्मिन् अर्थे ध्रुधातुः अस्ति उद्धरति उद्धरणं करोति उन्नयति उन्नतिः जानीमः खलु उन्नतिः उन्नतिः इत्युक्ते उपरि नयति नीधातोः रूपमेव तत्र उन्नतिः अपि च अत्र दर्शना भगिनी श्लोकं जानाति चेत् वदतु उद्धरेद् आत्मनात्मानम् भगिनि उद्धरेद् आत्मनात्मानम् आत्मानम् अवसादयेत् आत्मैव ह्यात्मनो बन्धुः आत्मैव वदतु
श्रूयते किं
श्रूयते
उद्धरेदात्मनात्मानम् श्रूरात्मना उद्धरेदात्मनात्मानं नात्मानमवसादयेत् आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः
अत्र अस्मिन् श्लोके आत्मा इति पदमस्ति तस्य अर्थः कः तत्र आत्मा इति पदस्य विशेषार्थः अस्ति अस्मिन् श्लोके विशेषार्थः अस्ति इत्युक्ते अत्र आत्मा इति शब्दस्य अर्थद्वयं वर्तते गीतायां भगवद्गीतायाम् आत्मा इति शब्दस्य अर्थद्वयमस्ति तत्र तत्पदं द्विधा प्रयुक्तमस्ति द्विप्रकारेण प्रयुक्तमस्ति आत्मा इति शब्दः तस्य अर्थः एकस्मिन् पक्षे मनः इति अर्थः एकस्मिन् पक्षे अस्ति अस्मिन् श्लोके आत्मा इति कथनेन मनः इति अर्थः अस्ति रमेश् महोदय वदतु अत्र अस्य वाक्यस्य अर्थः कः
वाक्यस्य अर्थः अस्ति आत्मना इत्युक्ते मनः मनसा एव मनः मनस् मनः मनसः उद्धारणं भवति इति उद्धारणं करणीयम् इति
करणीयम् इति विधिलिङ्गलकारः अस्ति इति कारणतः विधिलिङ्गलकारः विधिलिङ्गलकाररूपं यदस्ति तत्र कर्तरिप्रयोगे कर्तरिप्रयोगे विधिलिङ्गलकाररूपं यदा वयं उपयोगं तस्य उपयोगं कुर्मः तस्मिन् एव अर्थे तव्यत् प्रत्ययः अथवा अनियर् प्रत्ययः कर्मण्यर्थे तस्य रूपम् आयाति करणीयं कर्तव्यं मनसा एव आत्मानम् उद्धरेत् आत्मनः उद्धरणं करणीयम् इति भवति अत्र आत्मानम् इति कथनेन अत्र
बुद्धि भगिनि आत्मानम् इत्युक्ते
आत्मना इति कथनेन मनसा इति अर्थः अस्ति
आत्मानम् इत्युक्ते
आत्मानम् उद्धरेत् इति कथनेन अत्र आत्मानम् इत्यस्य अर्थः कः सुन्दरमहोदय वदतु
आत्मानम् इत्युक्ते स्वयं स्वयमेव अस्माकं मनसा स्वयमेव उपरि उद्धरणीयं
स्वस्य उद्धरणं करोतु
उद्धारणम् उद्धरणं वा उद्धारणं वा
उद्धरणं करोतु
उद्धरणम्
उद्धरणं करोतु अत्र अस्य वाक्यस्य अर्थः कः इत्युक्ते मनः अस्माकं वशे भवेत् मनः अस्माकं वशे एव भवेत् किमर्थम् तथा उक्तमस्ति श्लोके एव उक्तमस्ति मनः एव बन्धुः मनः एव रिपुः तत्र भगिन्या उक्तमेव आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः आत्म एव रिपुः आत्म एव आत्मनः रिपुः इति उक्तमस्ति अतः अस्माकं मनः वशे भवेत् इति अत्र सारांशः. अस्तु अग्रे सरेम. रमेश महोदय अग्रिमं वाक्यं करोतु.
ये यथा मां प्रपद्यन्ते तान् तथैव भजामि. कृष्णः अवदत् ये यथा मां प्रपद्यन्ते तान् तथैव भजामि. अस्तु ये इति सहतौते बहुवचनमस्ति. प्रथमाविभक्ति बहुवचनं.
अत्र प्रातिपदिकं किमस्ति?
यद् यद् अस्ति वा?
यद् यद् अस्ति किन्तु यद् भिन्नं खलु. यद् इति प्रातिपदिकमस्ति किन्तु अत्र किमस्ति? यत् अस्ति. द्वयोर्मध्ये भेदः अस्ति खलु. तत्र यद् इति प्रातिपदिकं दकारान्तप्रातिपदिकमस्ति. यद् इति दकारान्तप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. किन्तु अस्माकं पाठः अस्ति यत्. यत् इति अव्ययपदमस्ति. भवान् वदतु.
न ये इति यद् पदमासीत् तद् यद् इति तस्य प्रातिपदिकमस्ति. तदेव अहम् उक्तवान्.
उत्तमं.
तत् सम्यक्
सम्यक् सम्यक् सम्यक्.
यथा इति अव्ययमस्ति. माम् इति द्वितीयाविभक्ति अस्मत् शब्दस्य द्वितीयाविभक्ति एकवचनरूपं. प्रपद्यन्ते क्रियापदमस्ति. बहुवचनमस्ति. ये ये प्रपद्यन्ते ये मां प्रपद्यन्ते ये यथा मां प्रपद्यन्ते तान् तान् तथैव तथा एव इति सन्धिः अस्ति तत्र. तथा एव वृद्धिसन्धिः अस्ति. भजामि इति तान् तथा एव भजामि अहं भजामि इति अस्ति.
अत्र ये इति कथनेन ये मानवाः ये मानवाः यथा मां प्रपद्यन्ते इति उक्तमस्ति. यथा मां प्रपद्यन्ते अत्र प्रपद्यन्ते इति शब्दस्य सन्दर्भोचित अर्थः कः अस्मिन् प्रसङ्गे? प्रपद्यन्ते इत्यस्य अर्थः कः अत्र?
प्रपद्यन्ते तत्र पूजयन्ते इति वक्तव्यं वा?
सेवन्ते पूजयन्ति अथवा सेवन्ते. सेव् धातोः सेव् धातोः रूपमस्ति खलु सेवन्ते. ये ये जनाः ये ये मानवाः यथा मां प्रपद्यन्ते यथा मां सेवन्ते तान् तान् जनान् तथा एव
भजामि.
भजामि इत्युक्ते
अहं तादृशम् एव
अनुगृह्णामि
अनुगृह्णामि तेषां समीपे भवामि इति वा?
अनुगृह्णामि
अनुगृह्णामि.
ये ये मानवाः ये ये जनाः यथा मां सेवन्ते तान् जनान् तथा एव अहम् अनुगृह्णामि. बहु उत्तमं वाक्यं. भजामि इति कथनेन अनुगृह्णामि. अतः एव अस्माकं हिन्दू रिलिजियन् मध्ये बहवः देवताः सन्ति इति कारणतः बहवः भिन्नभिन्नजनाः भिन्नभिन्नदेवतान् पूजयन्ति. अतः एव परमात्मा वदति ये ये जनाः ये ये मानवाः यथा यथा यादृशरीत्या मां सेवन्ते पूजयन्ति तथा एव तान् अनुगृह्णामि. दर्शना भगिनी वदतु.
ये यथा मां प्रपद्यन्ते तां तथैव भजाम्यहम्. मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः.
उत्तमम्. अपि च रमेश महोदय भवान् वदतु. तान् तान्स् तथैव इत्यत्र सन्धिकार्यमस्ति. तान् योगः तथैव तत्र किं कार्यमस्ति?
सत्वं
सत्त्वसन्धिकार्यमस्ति. तान् योगः तथैव इत्यत्र सत्त्वसन्धिकार्यमस्ति. वदतु.
तथैव
तांस्तथैव इति भवति.
तत्र
नच्छव्यप्रशान्
उत्तमं सत्त्वसन्धिकार्यमस्ति नश्चव्यप्रशान् इति तत्र सूत्रमस्ति तेन सूत्रेण सत्त्वसन्धिकार्यं भूत्वा तान् योगः तथैव इत्यत्र तांस्तथैव इति रूपं भवति तत्र रूपं द्विधा लेखितुं शक्नुमः रूपद्वयं सिद्ध्यति तत्र अपि च उत्तमं बहूनि कार्याणि सन्ति तत्र रूपसाधनवेलायां यदा भिन्नमस्ति यथा भिन्नमस्ति द्वयोर्मध्ये भेदः कः रमेश महोदय वदतु
यथा इत्युक्ते ईदृशी इत्यर्थे यथा इत्युक्ते समयः यस्मिन् समये इति यदा भवति यथा इत्युक्ते ईदृशी
उत्तमम् अत्र यथा
क्षम्यतां भगिनि यथा तद्धितान्तपदमस्ति खलु
थालिति प्रत्ययः अस्ति तद्धितान्तपदमेव महोदयेन यथा उक्तं यथा इति कथनेन येन प्रकारेण इति अर्थः अस्ति यथा तथा यथा तथा किन्तु यदा इति कथनेन यस्मिन् काले यदा इति अपि तद्धितप्रत्ययान्तपदमेव यथा अपि तद्धितप्रत्ययान्तपदमेव यथा येन प्रकारेण यदा यस्मिन् काले इति अर्थः प्रपद्यन्ते इत्यत्र किमस्ति सुन्दरमहोदय
प्रपद्यन्ते इत्युक्ते प्र उपसर्गपूर्वक पद् इति धातोः प्रपद्यन्ते ओके कर्मणि प्रयोगः कर्मणि
किमर्थं कर्तरिप्रयोगः नास्ति देवादिगणे अस्ति चेत् कर्तरिरूपमपि तदेव
कर्तरि रूपमपि तदेव ओके
तत्र प्रपद्यते प्रपद्यते इति रूपं साधयतु दिवादिगणे अस्ति
दिवादिगणे ओके प्रपद्यते रूपं साधनीयं वा ओके दिवादिगणे प्रपद्यते पद्यते पद् योगे प्रत्ययः ह्यन् प्रत्ययः ओके पद् योगे शन् प्रत्यय शन् योगे त भवति तदनन्तरं शकारस्य लोपः भवति लशक्वदतिते इति सूत्रेण एवं नकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति य एव अवशिष्यते पद्योगे योगे आत्मनेपदिरूपं तङानाम् आत्मनेपदम् इति सूत्रेण त इति भवति प्रपद्यत इति भवति तदनन्तरं टित आत्मनेपदानां तेरे इति सूत्रेण ते भवति तदनन्तरं प्रपद्यते पद्यते इति सूत्रं भवति प्र पूर्वक पद्यते प्रपद्यते इति रूपं सिद्ध्यति
दिवादिगणीयधातूनां प्रसङ्गे कर्तरि लट् रूपमपि प्रपद्यते एव कर्मणि लट् रूपमपि प्रपद्यते एव तत्र वैशिष्ट्यमस्ति दिवादिगणीयधातूनां प्रसङ्गे कर्मणि लट् अपि पद्यते एव भवति तत्र कथम् इत्युक्ते ष्यन् विकरणप्रत्ययः अस्ति इति कारणतः ष्यन् विकरणप्रत्ययात् या इति रूपम् आयाति इति कारणतः कर्तरि लट् रूपं पद्यते धातुः पद् अस्ति ष्यन् ष्यन् इत्यस्मात् या आयाति इति कारणतः पद्यते इति कर्तरि लट् किन्तु कर्मणि प्रसङ्गे सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः आयाति इति कारणः तत्रापि या आयाति इत्यतः कर्मणि लट् रूपमपि पद्यते अपि च श्लोके तांस्तथैव भजाम्यहम् इति लिखितमस्ति अनुगृह्णामि भजामि इत्यस्य अर्थः अनुगृह्णामि इत्यत्र अनुगृह्णामि तत्र किं किं कार्यमस्ति रमेश भवान् वदतु
उपसर्गपूर्वक ग्रह धातोः उत्तमपुरुष लट् लट् रूपम् अस्ति उत्तम पुरुष एकवचनम् अस्ति अनु अनुग्रह योग्य तत्र सम्प्रसारणं भवति तद् गृह्णामि इति
किमर्थं तत्र किमर्थं सम्प्रसारणं कारणं किं निमित्तं किं
निमित्तम् इत्युक्ते धातोः ओके निमित्तं न जानामि भगिनि निमित्तं किमर्थम्
अत्र सूर्यकुमारी भगिनी ऊहां करोतु ग्रहधातुः क्रयादिगणे अस्ति क्रयादिगणे ग्रहधातुः क्रयादिगणे तस्य रूपं गृह्णाति गृह्णामि इत्यादीनि रूपाणि सन्ति वदतु
प्रत्यय अस्ति निद्वत् भवति तत् कारणेन ग्रहीजा वै वचि दीर्घसूत्रमस्ति निति च इति सूत्रेण गुणदृशे सम्प्रसारण धातु अस्ति चेत् सम्प्रसारणं भवति
उत्तमं तस्मिन् सूत्रे निति च इति उक्तमस्ति निति च इति उक्तमस्ति अत्र निति च इति निमित्तं कथं पूरितमस्ति अत्र
निति च इत्युक्ते किति निति अपि
अत्र अत्र कित् निति प्रत्ययः कः कित् साक्षात् कित् नास्ति खलु
पुरसूत्रमस्ति
तत्र तथा नास्ति भगिनि अत्र साक्षात् कित् नास्ति स्न्या प्रत्ययः स्न्या इति प्रत्यये शित्वम् अस्ति किन्तु पित्वं नास्ति इत्युक्ते स्ना इति गणविकरणप्रत्ययः क्रियादिगणीयगणविकरणप्रत्ययः स्ना इति प्रत्यये प्रत्यये शित्वम् अस्ति किन्तु अपित्वम् अस्ति सार्वधातुकप्रत्ययः शित् अस्ति किन्तु अपित् अस्ति चेत् सः प्रत्ययः नित्वत् प्रवर्तते खलु वदतु
सार्वधातुकमपि निद्वत्
तादृशप्रत्ययः अत्र कः स्ना प्रत्ययः
भगिनि
स्ना इति प्रत्ययः स्ना इति प्रत्ययः सार्वधातुकप्रत्ययः किन्तु अपित् प्रत्ययः तादृश सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते इति सार्वधातुकम् अपित् इति अतिदेशसूत्रेण उच्यते तादृशी स्थितिः अत्र अस्ति स्ना प्रत्ययः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् प्रवर्तते अतः अत्र गुणनिषेधः भवति इति एकं कार्यं सम्प्रसारणकार्यमपि भवितुं शक्नोति अत्र सम्प्रसारणकार्यार्थं तदेव निमित्तम् अस्ति अत्र स्नाप्रत्ययः नित्वत् प्रवर्तते इति कारणतः तत्र सम्प्रसारणकार्यं भूत्वा ग्रहगृह भवति अपि च ऋकारः अस्ति इति कारणतः ऋवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन णत्वं भवति गृह्णाति इति भवति किन्तु अत्र उत्तमपुरुषरूपं दत्तमस्ति अनुगृह्णामि इति रूपं भवति इत्युक्ते रषाभ्यां नोणः समानपदे इति सूत्रान्तर्गतं वार्तिकम् एव ऋवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकमस्ति तेन वार्तिकेन गृह्णाति गृह्णामि इत्यत्र णत्वकार्यं भवति श्रीकृष्णः अत्र किं वदति ये यथा मां प्रपद्यन्ते तान् तथैव अहम् अनुगृह्णामि इति वदति अत्र सम्प्रसारणकार्यं ग्रहिज्या वयि भगिन्या उक्तमेव ग्रहिज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनां निति च इति च सूत्रेण ग्रह इत्यस्य रूपं गृह भवति गृह्णामि इति रूपम् अग्रिमं वाक्यं भवती एव करोतु
अहं कर्म न कुर्यां चेत् लोकाः उत्सीदेयुः अहं कर्म न कुर्यां चेत् लोकाः उत्सीदेयुः अहम् अस्मत्शब्दस्य प्रथम एकवचनं कर्म कर्मन् शब्दस्य नपुंसकलिङ्ग
द्वितीया विभक्ति
द्वितीय न अव्ययं कुर्याम क्रूधातुतः
विधिलिङ्गलकाररूपं
कुर्याम कुर्याम विधिलिङ्ग
उत्तमपुरुष
एकवचनं चेत् अव्ययं
तत्र रूपाणि कथं भवन्ति कुर्यात् कुर्याताम् कुर्युः कुर्याः कुर्यातम् कुर्यात कुर्याम् कुर्याव कुर्याम तत्र कुर्याम् इति विधिलिङ्गलकारः उत्तमपुरुष एकवचनरूपमस्ति अत्र चेत् प्रयोगः अस्ति अस्मिन् वाक्ये कण्डिशन् अस्ति अहं कर्म न कुर्यां चेत् लोकाः उच्छीदेयुः वदतु
उत् शब्दातुः सीद् भवति
शब्दधातुः सीद् कदा भवति
दीर्घसूत्रमस्ति
दीर्घसूत्रमस्ति किन्तु तत्र सार्वधातुकप्रक्रियायां सार्वधातुकलकारेषु एव तत्र सद् सीद् कदा भवति इत्युक्ते केवलं चतुर्षु लकारेषु एव भवति
प्रत्ययादेश भवति
अत्र विधिलिङ्गलकाररूपमस्ति लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु एव सद् सीद् भवति वस्तुतः धातुः सद् अस्ति किन्तु सीद् सीदेयुः इति विधिलिङ्गलकार प्रथमपुरुष बहुवचनम् उद्योगः सीदेयुः उत्सीदेयुः इति अस्ति अत्र भवती किम् अवगतवती
अहं कर्म न
करोमि चेत्
करोति चेत्
अहं न करोमि अहं कर्म न करोमि चेत् किं भवति
लोकाः सीदेयुः
रमेश महोदय अस्य अर्थः कः
नश्यन्ति इति
नश्यन्ति इति दर्शना भगिनी वदतु
सः भगवान् वदति यत् अहं कार्यं न करोमि करिष्यामि चेत् तर्हि प्रजाः अथवा लोकाः ते नश्यन्ति तृतीय अध्याये अस्ति
अस्तु लोकाः उत्सीदेयुः उत्सीदेयुः इति पदमस्ति खलु अत्र तस्मिन् स्थाने अन्यत् पदं योजयितुं शक्यते वा विनश्येयुः साधु भवति वा इत्युक्ते अत्र सद् धातोः रूपं सीदेयुः इति लिखितमस्ति किन्तु तस्मिन्नेव अर्धे नश् धातोः रूपमपि योजयितुं शक्नुमः नश्येयुः इति योजयितुं शक्नुमः इतोपि स्पष्टतया वक्तव्यं चेत् विनश्येयुः इति भवति विनश्येयुः इति अपि विधिलिङ्गलकाररूपमेव प्रथमपुरुष बहुवचनरूपं विनश्येयुः उत्सीदेयुः इत्युक्ते लोकाः नाशं प्राप्नुवन्ति इति अर्थः लोकाः विनश्यन्ति विनश्यन्ति इति लट्टिरूपं किन्तु तत्र विधिलिङ्ग् अस्ति खलु अतः वयमपि विधिलिङ्गे एव तत्र योजयामः लोकाः विनश्येयुः इति भाति अहं कर्म न कुर्यां चेत् लोकाः विनश्येयुः इति भगवान् वदति उच्छीदेयुः इमे लोकाः न कर्म न कुर्यां कर्म चेत् अस्तु इमे लोकाः इति श्लोके दत्तमस्ति तत्र इदम् इति प्रातिपदिकं स्वीकृत्य पुंलिङ्गरूपमस्ति बहुवचनरूपम् इदं प्रातिपदिकम् अस्ति तत्र मकारान्तप्रातिपदिकम् इदं स्वीकृत्य इमे लोकाः उच्छीदेयुः इति श्लोके दत्तमस्ति अग्रिमं वाक्यं सुन्दरमहोदय करोतु
अहं सर्वभूतेषु समः अस्मि श्रीकृष्ण भगवान् श्रीकृष्णः वदति यत् अहं सर्वभूतेषु समः अस्मि तदेव समोऽस्मि इति अपि अत्र वक्तुं शक्यते सर्वभूतेषु अहं सर्वभूतेषु सर्वाश्च ते भूताः
चिन्तयतु भूतानि
भूतानि ओके ओके सर्वाणि च तानि भूतानि च सर्वभूतानि 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 योगे तेषु सर्वभूतेषु इति
समासस्य नाम किम्
समासस्य नाम कर्मधार विशेषण विशेषणपूर्वपद कर्मधारे समासः
विशेषणपूर्वपदकर्मधारे समासः अस्ति अत्र सर्व इति सर्वनामपदम् अपि च विशेषणमस्ति अतः सर्वाणि च तानि भूतानि च तेषु इति विग्रहवाक्यं वक्तव्यमस्ति विशेषणपूर्वपदकर्मधारे समासः अस्ति सप्तम्यन्तं पदं समस्तपदम् समस्तपदं सप्तम्यन्तं पदम् अस्ति सप्तमी बहुवचनरूपमस्ति सर्वम् इति कथनेन सकलं सकलभूतेषु समः अहम् समः इत्यस्मिन् स्थाने अन्यत् पदं वक्तुमिच्छति वा
समः इत्युक्ते
तुल्यं तुल्यं वक्तुं शक्यते वा तत्र समस्य भावः
सामान्यं
न समस्य भावः
समस्य भावः साम्यं साम्यम् अस्ति
समानस्य समानस्य भावः
सामान्यं
साम्यं भिन्नं सामान्यं भिन्नं खलु
तदेव सामान्यम् इत्युक्ते साधारण सामान्यम् इत्युक्ते साधारणं साम्यम् इत्युक्ते इक्विवेलेण्ट् समम्
साम्यं साम्यम् इत्यस्मिन् स्थाने समत्वं
समत्वम् अपि भवितुं शक्यते समत्वं समता एतदपि
समता समता किन्तु समानस्य भावः सामान्यम् अस्ति
सामान्यं समानता समत्वं समानत्वं
समानत्वं समानता सामान्यं
सामान्यं तदेव
अत्र अस्य अर्थः कः
अहं सर्वभूतेषु समः अस्मि इत्युक्ते अहं सर्वभूतानां कृते समानमेव अस्मि इत्युक्ते एकस्य कोऽपि भूतेषु पारपक्षं न करोमि इति अर्थः किल
भेदः नास्ति
भगिनी वदतु सूर्यकुमारी भगिनी
दुष्टपुरुषाः शुद्धपुरुषाः अपि अहं समानदृष्टेन पश्यामि
अस्तु रमेश महोदय भवान् किं चिन्तयति
अहं सर्वभूतेषु समः अस्मि अहं सर्वभूतेषु अस्मि इति वा
सर्वेषु प्राणिषु सर्वेषु प्राणिषु अहं समानः इतोपि अर्थः अस्ति वा अत्र अहं सर्वेषु प्राणिषु अत्र भूतानि भूतानि इति दत्तमस्ति भूतानि इत्युक्ते प्राणिनः प्राणी इति नकारान्तप्रातिपदिकं प्राणिन् इति प्रातिपदिकमस्ति प्राणी इति प्रथमाविभक्ति एकवचनरूपमस्ति प्राणिनः भूतानि इत्यस्मिन् स्थाने प्राणिनः इति पदमपि योजयितुं शक्नुमः सर्वेषु प्राणिषु अहं समानः अस्मि इत्युक्ते
पक्षपातं न
भवान् जानाति एव तत्र इतोपि विशेष विशेषचिन्तनम् अस्ति वा इति मम सन्देहः.
सर्वभूतेषु अहमेव अस्मि इति वा? तदपि अस्ति खलु.
सर्वभूतेषु अहमेव अस्मि, तत्र सर्वभूतेषु अहमेव अस्मि इति बहु उत्तमम्. अस्तु,
परन्तु अस्मिन् श्लोके प्रायः तद् नास्ति इति मम चिन्तनम्.
दर्शनभगिनी भवती वदतु.
सर्वभूतेषु समः अस्मि इत्युक्ते भूतानां कृते सः भेदः न करोति, अपि च नरः पापी अस्ति वा पुण्यकृत् अस्ति सः भेदः न करोति, यथा यथा मां प्रपद्यन्ते.
उत्तमम्. अत्र पुण्यकृत् इति उक्तवती खलु, यः पुण्यं करोति सः पुण्यकृत्, पुण्यकृत्. यः पापं करोति सः पापकृत्. क्विबन्तपदानि, क्विप् प्रत्ययान्तपदानि सन्ति, तेषु पदेषु उपपदसमासः अस्ति. पुण्यकृत्, पापकृत्, कर्मकृत्, क्षयकृत् इत्यादिषु उपपदसमासः अस्ति. अत्र अस्तु, अग्रे केचन श्लोकाः दत्ताः, तेषु श्लोकेषु अव्ययपदानि सन्ति, तानि अव्ययपदानि एकवारं पश्यन्तु. इत्युक्ते प्रदत्तान् श्लोकान् पठित्वा पश्चात् अव्ययपदानि चित्वा इच्छन्ति चेत् लिखन्तु. गृहपाठत्वेन इदं कार्यं कुर्वन्तु. किन्तु अग्रिमे सप्ताहे नूतनपाठं प्रति गमिष्यामः. नूतनपाठः अग्रिमे सप्ताहे आरप्स्यते.
इदानीं ददामि ते चक्षु.
वदतु.
नैव, अहं तत्र शीर्षकं पठितवती तावदेव.
शीर्षकमस्ति वा?
आम्, तत्र
अग्रिमपाठस्य शीर्षकं.
धन्यवादः.
अत्र एतेषु श्लोकेषु अपि अव्ययपदानि दत्तानि. एकवारं कानि कानि अव्ययानि सन्ति एतेषु श्लोकेषु इति द्रष्टुं शक्नुमः. पश्यामश्चेत् किञ्चित् इतोपि श्लोकानाम् अवगमनं जायते. अतः एकवारं पश्यन्तु. यथा भगिन्या उक्तम्, अग्रिमं पाठं प्रति आगामिसप्ताहे गमिष्यामः. दिव्यं ददामि ते चक्षुः, तुभ्यं दिव्यं चक्षुः ददामि. साधु, वयं सम्यक् चिन्तनं कृतवन्तः अद्य. इदानीं विरमाम. सर्वेषां धन्यवादाः.
धन्यवादः.
अनेके धन्यवादः भगिनी.
धन्यवादः महोदय.